दूनास्तेरिबलादूनाः निरेभा बहु मे निरे भीताश्चितशरा भीताः शङ्करं तत्र शङ्करम्। दूना इति दूनाः शरतप्ताः ल्वादिभ्यः इति निष्ठानत्वम्। अरिबलात् शत्रुबलात् ऊनाः ऊनबलाः पञ्चमी विभक्ते इति पञ्चमी। निरेभाः निःशब्दाः कुतः भीताः त्रस्ताः कुतः यतः शितैः तीक्ष्णैः शरैः आभीताः अभिव्याप्ताः इणः कर्मणिक्तः ते गणाः तत्र रणे शङ्करम् अभयवचनेन सुखकरम् शङ्करम् शिवम् बहु यथा तथा मेनिरे अमन्यन्त पादाद्यन्तयमकम्। महेषु जलधौ शत्रोः वर्तमानादुरुत्तरे प्राप्य पारमिवेशानम् आशश्वासपताकिनी। महेष्विति दुरुत्तरे दुस्तरे शत्रोः सम्बन्धिनी। महेषु जलधौ महति बाणसागरे वर्तमाना पताकिनी सेना ईशानं शिवं पारं परतीरमिव पारावारे परार्वाची इत्यमरः। प्राप्य आशश्वास प्राणिति स्म सबभाररणापेतां चमूं पश्चादवस्थिताम् पुरःसूर्यादपावृत्ताम् छायामिव महातरुः। स इति सः शिवः रणापेताम् रणात् अपवृत्ताम् पराङ्मुखीभूताम् अत एव पश्चात् पृष्ठभागे अवस्थिताम् चमूम् पुरः अग्रे स्थितः सूर्यः पुरःसूर्यः रणोपमानम् एषः। तस्मात् अपावृत्ताम् परावृत्ताम् छायाम् महातरुरिव बभार। छायाम् तरुरिव आत्मैकशरणाम् ताम् चमूम् न मुमोच इत्यर्थः। मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः दध्वानध्वनयन्नाशाः स्फुटन्निवधराधरः। मुञ्चतीति ईशे हरे कर्तरि जिष्णौ अर्जुने विषये शरान् मुञ्चति सति पिनाकस्य शिवकार्मुकस्य स्वनेन ध्वनिना पूरितः धराधरः इन्द्रकीलः स्फुटन्निव विदीर्यमाण इवेति उत्प्रेक्षा। आशाः दिशः ध्वनयन् शब्दयुक्ताः कुर्वन् दध्वान शब्दमकरोत्। दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः इत्यमरः। तद्गणाददृशुर्भीमम् चित्रसंस्था इवाचलाः विस्मयेन तयोर्युद्धम् चित्रसंस्था इवाचलाः। तदिति भीमम् तयोः हरपाण्डवयोः तत्प्रसिद्धम् युद्धम् गणाः प्रमथाः चित्रसंस्थाः चित्राकाराः अचलाः शैलाः इव तथा चित्रे आलेख्ये संस्था स्थितिः येषान्ते चित्रसंस्थाः चित्रलिखिताः इव अचलाः आश्चर्यवशात् निश्चलास्सन्तः विस्मयेन ददृशुः। परिमोहयमाणेन शिक्षालाघवलीलया जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना। परीति शिक्षालाघवलीलया अभ्यासपाटवातिशयेन हेतुना పరిమోహయమాణేన వ్యామోహయత. అనావకర్మక చిత్తవత్కర్తృకాత్ ఇతి పరస్మైపదే ప్రాప్తే నపాదమి ఇత్యాదిన తత్ప్రతిషేధాత్ ఆత్మనేపదం శానచ్. నేర్విభాషా ఇతి కృత్సస్య నస్యవా నత్వం. పినాకినా హరేణ జిష్ణోః అర్జునశ్చ ఇయం జైష్ణవీ. విశిఖశ్రేణీ బాణసంఘాతః పరిజహ్రే నిరస్తా. అవద్యన్పత్రిణః శంభోః సాయకైరవసాయకైః పాండవః పరిచక్రామ శిక్షయా రణశిక్షయా. అవద్యన్నితి పాండవః అర్జునః అవసాయకైః అవసానకరైః. స్యతేహి ణ్యంతాత్ ణ్వుల్ ప్రత్యయః. సాయకైః బాణైః శంభోః పత్రిణః శరాన్. అవద్యన్ను ఖండయన్ను. ద్యతేహి శత్రుప్రత్యయః. ఓతస్యని ఇత్యోకారలోపః. శిక్షయా శక్తుం ప్రభవితుమిచ్ఛయా ఉత్సాహేన ఇత్యర్థః. రణేః శిక్షయా అభ్యాసేన చ పరిచక్రామ ఉత్సాహనైపుణ్యాభ్యాం చచార ఇత్యర్థః. చారచుంచుశ్చిరారేచీ చంచచ్చీరరుచారుచః. చచారరుచిరశ్చారు చారైరాచారచంచురః. చారైరితి చారైః గతివిశేషైః. విత్తే ఇతి చారచుంచుః. తేన విత్తశ్చుంచుప్చణపౌ ఇతి చుంచుప్రత్యయః. చిరం ఆరేచయతి రిక్తీకరోతి శత్రూనితి చిరారేచీ. చంచతః చలతః చీరస్య వల్కలస్య రుచా ప్రభయా. రోచతే ఇతి రుచః శోభమానః. ఇగుపధా ఇతి కః. రుచిరః సుందరః. చంచూర్యతే భృశం చరతీతి చంచురః. చరతేః యంగంతాత్ పచాద్యచ్. చరఫలోశ్చ ఇతి నుమాగమః. యంగోచిచ ఇతి యంగో లుక్. ఆచారస్య యుద్ధవ్యవహారస్య చంచురః భృశం ఆచరితః సః మునిః. చారు యథా తథా చారైః చక్రాదిబంధైః గతివిశేషైః చచార. చారః ప్రియాలవృక్షే స్యాత్ గతౌ బంధాపసర్పయోః ఇతి విశ్వః. ద్వ్యక్షరః. స్ఫురత్పిషంగమౌర్వీకం ధునానస్స బృహద్ధనుః. ధృతోల్కానలయోగేన తుల్యమంశుమతా బభౌ. స్ఫురదితి సః మునిః అర్జునః. స్ఫురంతీ పిషంగీ పిషంగవర్ణా. మౌర్వీ జ్యా యస్య తత్ తథోక్తం. నద్ర్యుతశ్చ ఇతి కప్రత్యయః. బృహద్ధనుః గాండీవం. ధునానః కంపయన్. ఉల్కైవ అనలః తేన ధృతః యోగః హేన తేన. అంశుమతా అర్కేణ సూర్యేణ తుల్యం బభౌ. ఉపమా. పార్థబాణాః పశుపతేః ఆవవ్రుర్విశిఖావలీం. పయోముచ ఇవారంధ్రాః సావిత్రీమంశు సంహతిం. పార్థేతి పార్థబాణాః అర్జునశరాః పశుపతేః విశిఖావలీం శరసంఘాతం. సవితుః ఇయం సావిత్రీ తాం. అంశుసంహతిం కిరణసమూహం. అరంధ్రాః నిబిడాః పయోముచః మేఘాః ఇవ. ఆవవ్రుః తిరోదధుః. శరవృష్ दृष्टिम् विधूयोर्वीम् उदस्ताम् सव्यसाचिना रुरोधमार्गणैर्मार्गम् तपनस्य त्रिलोचनः शरेति त्रिलोचनः शिवः सव्येन सचते समवैतीति तेन सव्यसाचिना अर्जुनेन उदस्ताम् क्षिप्ताम् उर्वीम् महतीम् शरवृष्टिम् मार्गणैः शरैः विधूय निरस्य तपनस्य रवेः मार्गम् रुरोध आवव्रे तेन व्याते निरे भीमाः भीमार्जनफलाननाः ननानुकम्प्य विशिखाः शिखाधरजवाससः तेनेति तेन शिवेन भीमाः भयङ्कराः तथा भियः भयस्य मार्जनम् निरासः तदेव फलम् प्रयोजनम् येषाम् तानि आननानि अग्राणि येषाम् ते भीमार्जनफलाननाः तथा शिखाधराः मयूराः तेषु जातानि शिखाधरजानि बर्हाणि तानि वासांसीव वासांसि पक्षाः येषाम् ते शिखाधरजवाससः मयूरपक्षिणः इत्यर्थः विशिखाः बाणाः अनुकम्प्य कृपाम् कृत्वा न व्याते निरे इति न किन्तु अनुकम्प्यैवेत्यर्थः अनुजिघृक्षुत्वादिति भावः सम्भाव्यनिषेधने द्वौ प्रतिषेधौ इत्युक्तम् शृङ्खलायमकम् द्युमियद्गामिनीतारसंराव विहतश्रुतिः हैमीषु माला शुशुभे विद्युतामिव संहतिः द्युबियदिति द्याम् स्वर्गम् वियत् अन्तरिक्षम् च गामिनी व्यापिनी द्युवियद्गामिनी द्वितीयाप्रकरणे श्रितादिषु गम्यादीनाम् उपसङ्ख्यानात् समासः तारेण उच्चैस्तरेण संरावेण नादेन विहताः विद्धाः श्रुतयः कर्णाः ययासा तथोक्ता हैमी हैममयी इषुमाला शिवशरावलिः विद्युताम् संहतिरिव उक्तविशेषणा विद्युन्मालेव शुशुभे चतुर्थपादवर्णानाम् त्रिपाद्याम् सम्भवात् गूढचतुर्थपादमाहुः विलङ्घ्य पत्रिणाम् पङ्क्तिम् भिन्नः शिवशिलीमुखैः ज्यायो वीर्यमुपाश्रित्य न च कम्पेकपिध्वजः विलङ्घ्येति शिवशिलीमुखैः पत्रिणाम् पङ्क्तिम् निजशरावलिम् विलङ्घ्य अतिक्रम्य भिन्नः विद्धः कपिध्वजः अर्जुनः ज्यायः प्रशस्तम् वृद्धप्रशस्ययोर्ज्यायान् इत्यमरः वीर्यम् सत्त्वम् उपाश्रित्य अवस्थाय न च कम्पे न च चाल किन्तु तान् सहन् अवतस्थौ इत्यर्थः जगती शरणे युक्तो हरिकान्तः सुधासितः दानवर्षी कृताशंसो नागराज इवाबभौ जगतीति अर्थत्रयवाची श्लोकः अयम् तत्र आदौ अगराज इति पदच्छेदम् आश्रित्य प्रथमः अर्थः अभिधीयते ईशस्य रणे युक्तः शक्तः अन्यत्र जगतीशरणे भूरक्षणे युक्तः स्थितः विधिना इति शेषः हरिः सिंहः इव कान्तः मनोहरः अन्यत्र हरीणां सिंहानां कान्तः आवासदानात् प्रियः सुष्ठु दधाति पालयति प्रजाः इति सुधा पिबन्तः असितः कृष्णवर्णः ततः विशेषणसमासः अन्यत्र सुधा लेपद्रव्यविशेषः तद्वत् सितः धवलः दानवर्षी बहुप्रदः कृताशंसः कृतजयाभिलाषः अन्यत्र दानवैः दैत्यैः ऋषिभिः इना कामेन च कृताशंसा नानाफलाभिलाषः यस्मिन् सः ना नरः अर्जुनः अगराजः हिमवानिव जगति आबभौ इति एकः अर्थः अथ ऐरावतसाम्यम् उच्यते जगतीं भुवं श्यन्ति तनूकुर्वन्तीति ते जगतीशाः राक्षसाः तेषां रणः तत्र युक्तः विहितः समर्थः हरिकान्तः इन्द्रप्रियः उभयत्रापि समानमेतत् सुधासितः अमृतस्वच्छः एकत्र शीलतः अन्यत्र वर्णतः इति विवेकः दानवर्षी धनप्रदः मदस्रावी च कृताशंसः उभयत्र कृतजिगीषः पार्थः नागराज इव ऐरावत इव आबभौ इति द्वितीयः अर्थः अथ शेषौपम्यम् उच्यते जगतीशरणे भूरक्षणे युक्तः नियुक्तः दैवेनेति शेषः शरणं गृहरक्षित्रोः इत्यमरः हरिकान्तः कृष्णप्रियः उभयत्रापि तुल्यम् सुष्ठु दधातीति सुधा वसुधेति केचित् एकदेशग्रहणात् समुदायग्रहणम् तत्र सितः बद्धः श्रीबन्धने क्तः अन्यत्र सुधया अमृतेन सितः बद्धः अमृतप्रियः इत्यर्थः दानवाश्च ऋषयश्च ईर्लक्ष्मीश्च कृताशंसः विहितप्रशंसः उभयत्रापि तुल्यमेतत् सः अर्जुनः नागराजः शेषः इव आबभौ इति तृतीयः अर्थः विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना गाण्डीवधन्वनः खेभ्यो निश्चक्रामहुताशनः विफलीति शम्भुना क्षतबाणस्य अत एव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य गाण्डीवं धनुः यस्य तस्य गाण्डीवधन्वनः अर्जुनस्य वा संज्ञायाम् इत्यनङ्गादेशः खेभ्यः इन्द्रियरन्ध्रेभ्यः खमिन्द्रिये सुखे स्वर्गे इति विश्वः हुताशनः अग्निः निश्चक्राम निष्क्रान्तः क्रोधादिति भावः सपिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते स इति पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेण उत्कृष्टेन मन्युना क्रोधेन उरु महत् तेजः किरन् विक्षिपन् सः अर्जुनः ज्वलिताः ओषधयः तृणज्योतींषि जातवेदाः दवाग्निश्च यस्मिन् तेन हिमशैलेन समं तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवत् शुशुभे इति बिम्बप्रतिबिम्बभावोपमा शतशो विशिखानवद्यते भृशमस्मैरणवेगशालिने प्रथयन्न निवार्य वीर्यताम् ప్రజిఘాయేషు మఘాతుకం శివః శతశ ఇతి శివః శతశః విశిఖాన్ అవద్యతే ఖండయతే రణవేగశాలినే రణసంరంభశోభినే అస్మై పార్థాయ భృశం అత్యర్థం అనివార్యవీర్యతాం నిజామితి శేషః తస్మై ప్రథయన్ దర్శయన్ కింతు అఘాతుకం అమారకం లషపత ఇత్యాదినా హంతేః ఉకయ్య ఇషుం జాతావేకవచనం ప్రజిఘాయ ప్రయుయుజే హి గతౌ ఇతి ధాతోః లిట్ హే రచంగి ఇతి కుత్వం శంభోర్ధనుర్మండలతః ప్రవృత్తం తం మండలాదంశుమివాంశు భర్తుః నివారయిష్యన్ విదధే సితాశ్వః శిలీముఖఛాయావృతాం ధరిత్రీం శంభోరితి సితాశ్వః అర్జునః శంభోః ధనుర్మండలతః ధనుర్వలయాత్ ప్రవృత్తం నిష్క్రాంతం తం ఇషుం అంశుభర్తుః అర్కస్య మండలాత్ ప్రవృత్తం అంశుమివ అత్రాపి ఇషువత్ జాతావేకవచనం నివారయిష్యన్ నివారయితు కామః క్రియార్థక్రియాయాం లృటి తస్య శత్రాదేశః ధరిత్రీం భువం శిలీముఖానాం ఛాయా శిలీముఖఛాయం ఛాయా బాహుల్యే ఇతి నపుంసకత్వం తేన వృతాం వ్యాప్తాం విదధే కృతవాన్ శరజాలఛాయావృతాం ధరిత్రీం అకరోదిత్యర్థః ఉపమాలంకారః ఘనం విదార్యార్జున బాణపూగం ససార బాణో యుగలోచనస్య ఘనం విదార్యార్జున బాణపూగం ససార బాణో యుగలోచనస్య ఘనమితి అయుగలోచనస్య విషమనేత్రస్య ఈశస్య అలోచనస్య లోచ్యతే అసౌ లోచనః కర్మణి ల్యుట్ న లోచనః అలోచనః తస్య అలోచనస్య అచాక్షుషజ్ఞానవిషయస్య సంబంధీ సారః బలం బాణః శబ్దః తాభ్యాం సారవణాభ్యాం స్థిరశబ్దాభ్యాం సహ వర్తతే ఇతి ససారవాణః భవయోః అభేదః ఇత్యుక్తం న యుజ్యతే కుత్రాపీతి అయుక్ సంగరహితః క్విప్ బాణః శరః జాతౌ ఏకవచనం ఘనం సాంద్రం అర్జునస్య బాణపూగం శరవ్రాతం విదార్య విభిద్య ఘనం నిబిడం విదార్యో భూమికూష్మాండ్యో లతావిశేషాః అర్జునాః కకుభవృక్షాః బాణాః నీలసైరేయకాః పూగాః క్రముకాః తేషాం విభాషావృక్ష ఇత్యాదినా ద్వంద్వైకవద్భావః విదార్య అర్జునబాణపూగం ససార వివేశ ఇత్యర్థః సృగతౌ యద్వా తదానీమేవ యుగలోచనస్య అర్జునస్య బాణః ససార ఇత్యర్థః రుజన్మహేషూన్ బహుధాషు పాతినో ముహుశ్శరౌఘైరపవారయన్ దిశః చలాచలోనేక ఇవ క్రియావశాత్ మహర్షి సంఘైర్బుబుధే ధనంజయః రుజన్నిత్యాది బహుధా ఆశుపాతినః శీఘ్రం ఆపతతః మహేషూన్ ముహుః శరౌఘైః రుజన్ భంజయన్ తథా దిశశ్చ अपवारयन् आच्छादयन् क्रियावशात् तत्तत् गतिवशात् चलाचलः अतिचञ्चलः धनञ्जयः अर्जुनः महर्षिसङ्घैः अनेकः बहुविधः इव बुबुधे ददृशे विकाशमीयुर्जगतीशमर्गणाः 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 विकाशमिति जगतीशस्य पृथिवीपतेः अर्जुनस्य मार्गणाः बाणाः विकाशं विस्तारं ईयुः तथा जगति लोके ईशमार्गणाः शम्भुशराः विकाशं विषमगतिम् ईयुः भङ्गम् ईयुरित्यर्थः तथा जगतीं पृथ्वीं श्यन्ति तनूकुर्वन्तीति जगतीशाः दानवाः आतोनुपसर्गे कः तान् मारयन्तीति जगतीशमार म्रियते ह्यण्यन्तात् क्विप् ते च ते गणाः प्रमथाश्च जगतीशमर्गणाः विकाशम् उल्लासम् ईयुः हर्षं प्रापुः इत्यर्थः अहो देवेऽपि अस्य पराक्रमप्रसर इति विस्मयादिति भावः तदानीं मार्गयन्तीति मार्गणाः अन्वेषकाः कर्तरि ल्युट् जगतीशस्य त्रैलोक्यनाथस्य मार्गणाः अन्वेषकाः शिवद्रष्टारः देवर्ष्यादयः वीनां पक्षिणां काशः गतिः अत्रेति विकाशम् आकाशम् ईयुः दिदृक्षया इति भावः सम्पश्यतामिति शिवेन वितायमानम् लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभरां बभूवुः सम्पश्यतामिति इति इत्थं शिवेन वितायमानं विस्तार्यमाणं तनोतेः यकि इति वैकल्पिकः आकारादेशः लक्ष्मीवतः जयश्रीमतः मादुपधायाः इत्यादिना मतुपो मस्य वकारः क्षितिपतेः तनयस्य अर्जुनस्य वीर्यं शौर्यं सम्पश्यतां तत्त्वविदामपि हरेः अंशावतारोऽयमिति विदुषामपि किमुत अन्येषामिति भावः मुनीनाम् अङ्गानि गात्राणि अभिन्नम् अविरलम् अञ्चिततरम् अतिरुचिरम् रोमाञ्चम् रोमहर्षम् बिभरां बभूवुः बभ्रुः भीह्री इत्यादिना विकल्पात् आम्प्रत्ययः इति श्रीमहामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां पञ्चदशः सर्गः समाप्तः।